Evaṃ me sutaṃ ekaṃ samayaṃ bhagavā Sāvattiyaṃ viharati jetavane anātha pindikassa ārāme Atha ko anyatara devata abhikkantāya rattiyā Abhikkanta vanna kevala kappaṃ jetavanaṃ obhāsetvā Yena bhagavāte nupasaṅkami Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ attāsi ekamantaṃ titāko sā devatā bhagavantaṃ gātāya ajjabhāsi parābhavantaṃ purisaṃ mayaṃ puccāma gotamaṃ Bhagavantaṃ puttumāgamma kiṃ parābhavato mukhaṃ suvijāno bhavaṃ hoti suvijāno parābhavo dhammakāmo bhavaṃ hoti dhammadesi parābhavo Iti hetaṃ vijānāma paṭhamoso parābhavo dutiyaṃ bhagavā bhūhi kiṃ parābhavato mukhaṃ asantassa piyā honti santena kurute piyaṃ Asataṃ dhammaṃ rocheti taṃ parābhavato mukhaṃ Iti hetaṃ vijānāma dutiyoso parābhavo Tatiyaṃ bhagavā brūhi kiṃ parābhavato mukhaṃ Nidhāsīlī sabhāsīlī anuddhātā ca yo naro alaso kodha maññāno taṃ parābhavato mukhaṃ iti hetaṃ vijānāma tatiyoso parābhavo catuddhaṃ bhagavā bhūhi kiṃ parābhavato mukhaṃ yo mātaraṃ vā pitaraṃ vā jinnakaṃ gata yobbanaṃ pahu santo na bharati taṃ parābhavato mukhaṃ iti hetaṃ vijānāma catuttoso parābhavo pañcamaṃ bhagavā bhūhi kiṃ parābhavato mukhaṃ yo brāhmaṇaṃ vā samanaṃ vā aññaṃ vāpi vanibbakaṃ musāvādena vañceti taṃ parābhavato mukhaṃ iti hetaṃ vijānāma pañcamoso parābhavo caṭṭhamaṃ bhagavā bhūhi kiṃ parābhavato mukhaṃ pahūta vitto puriso sabhiraññō sabho jano Eko bhuñjati sādhūni taṃ parābhavato mukhaṃ iti hetaṃ vijānāma caṭṭhamoso parābhavo satamaṃ bhagavā bhūhi किं परा भवतो मुखं जाति तद्दो धनात्तद्दो गोत्तात्तद्दो चयो नरो संज्ञातिं अतिमन्येति तं परा भवतो मुखं इति हेतं विजानाम सत्तमोऽसो परा भवो अट्ठमं भगवा भूहि किं परा भवतो मुखं इति दूतो सुरा दूतो अक्खदूतो चयो नरो लद्धं लद्धं विनाशेति तं परा भवतो मुखं इति हेतं विजानाम अट्ठमोऽसो परा भवो नवमं भगवा भूहि किं परा भवतो मुखं सेहि दारेहि सन्तुष्टो वेशियासु पदिस्सति दिस्सति परदारेषु तं परा भवतो मुखं इति हेतं विजानाम नवमोऽसो परा भवो दशमं भगवा भूहि किं परा भवतो मुखं अतीतयौवनोपोषो आनेति तिम्बरुत्तनिं तस्सा ईशानसूपति तं परा भवतो मुखं इति हेतं विजानाम दशमोऽसो परा भवो एकादशमं भगवा भूहि किं परा भवतो मुखं इति सोण्डिं विकिरणिं पुरिसं वापिता दिशं ईश्वरीयास्मिं तपापेति तं परा भवतो मुखं इति हेतं विजानाम एकादशमोऽसो परा भवो द्वादशमं भगवा भूहि किं परा भवतो मुखं अपभोगो महातन्हो खत्ये जायते कुले शोच राज्यं पथयति तं परा भवतो मुखं एते परा भवे लोके पंडितो समवेक्ष्य अरियो दर्शन सम्पन्नो सलोकं भजते शिवान्तीति नक्कात्यक् भूतानां पापग्रह निवारणा परितासानुभावेन हन्तु तेषाम् उपद्रवे।